गीता साधक संजीवनी 15वां अध्याय श्लोक 1 से 10 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं।
ओम श्री परमात्मने नमः। अथ पुंसदसोऽध्याय। श्री भगवान उवाच। ऊर्ध्वमूलमधशाख नाश्वत्थं प्राहुरव्ययं छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवे अधस्तूर्णं प्रसितास्तस्य शाख गुणवृद्धानुसन्धुतानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येहतथोपलभ्यते नान्तु संप्रतिष्ठा अश्वत्थमेनं सुविरूढमूल न सङ्गशस्येन दृढेन चेत्वा ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूय तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्ते प्रसृता पुराणी निर्माणमोहाचितसङ्गदोषा अध्यात्मनित्याविनिवृत्तकामा वन्दैर्विमुक्ता सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययन्त न तद्भासदति सूर्यो न शशाङ्को न पावको यद्गत्वा नैव तन्ते तद्धाम परमं मम न नैवांशो जीवलोके जीवभूतः सनातन मनसष्ठानेन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यद्वाप्नोति यच्चाप्युत्क्रामतीश्वर देहे त्वैतानि संयाति वायुर्गन्धानि वासया श्रोत्रं चक्षुः स्पर्शनं च रसनघ्राणमेव च अभीष्टाय मनस्ताय कृषयानुपसेवते योत्कामन्तं स्थितं वापि संज्ञानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष योत्कामन्तं स्थितं वापि संज्ञानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषा
वसुदेवसुतं देवं कंसचाणूः